सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. सुखार्थिनः कुतो विद्या, नास्ति विद्यार्थिनः सुखं. सुखार्थी वा त्यजेत् विद्यां, विद्यार्थी वा त्यजेत् सुखम्. इत्युक्ते विद्या प्राप्तुं कः अर्हः अथवा केन विद्या प्राप्यते इत्यस्मिन् विषये अयं श्लोकः किञ्चित् टिप्पणीं ददाति. टिप्पणी इत्युक्ते हिण्ट्. यदि वयं सुखमेव इच्छामः तर्हि विद्या अस्माभिः न प्राप्यते. अतः साधारणतया विद्यार्थिनः सुखं न मिलति. यदि विद्यार्थी केवलं सुखमेव प्राप्तुमिच्छति तर्हि विद्याप्राप्तिः सुदुर्लभः भवति. अनन्तरं विद्यार्थिना सुखं किञ्चित् त्यक्तव्यं. तत्तु तावत् सुलभः नास्ति, परन्तु शारीरिकस्तरे किञ्चित् सुखं त्यजामः चेत् एव विद्याप्राप्तिः सुसाध्यं भवति. विद्यार्जनाय प्रयत्नः नित्यं प्रतिदिनम् अत्यावश्यकः. प्रयत्नेन एव वयं सर्वं साधयितुं शक्यम्. अतः वयम् अत्र सर्वे मिलित्वा नित्यविद्यार्थिनः भूत्वा संस्कृतभाषायाः अध्ययनार्थं किञ्चित् प्रयत्नं कुर्मः. विलम्बं विना अत्र गते सप्ताहे वयं कुतः, इतः, ततः, इतस्ततः, उपरिष्ठात् इति पञ्च नूतनानि पदानि वयं ज्ञातवन्तः. भवन्तः सज्जीकृत्य वाक्यानि श्रावयन्ति चेत् श्रावयन्तु. अत्र गृहपाठरूपेण वाक्यानि लिखन्तु इति अहं प्रेषितवती. अपि च ग्रीष्मकाले यदि भवन्तः प्रवासं कृतवन्तः चेत् तस्मिन् विषये किञ्चित् वदन्तु इति उक्तवती. अधुना कः वदति? अधुना भूमा भगिनी भवती वदतु, भवती किं लिखितवती अत्र? भगिनी वदति वा वाक्यानि? वाक्यानि श्रावयतु.
गते ग्रीष्मकाले अहं कुटुम्बसहितं सहितं काश्मीरनगरं गतवती.
कुटुम्बेन सह?
कुटुम्बेन सह. ओ,
किमर्थं तथा इत्युक्ते सः इति पदम् उपपदम्. यथा वयं प्रति इति पदं वदामश्चेत् द्वितीयविभक्तौ वदामः. कं प्रति वदामि इत्युक्ते अहं भूमा भगिनीं प्रति उक्तवती इति वदामः. तथा एव अत्रापि सः अथवा विना, विना प्रयोगे अथवा सः प्रयोगे सर्वदा तृतीयविभक्तेः उपयोगं कुर्मः. अतः वदतु.
धन्यवादः. तत्र उद्यानवनं, पर्वतश्रेणी च दृष्टवन्तः.
दृष्टवन्तः इति वदामश्चेत् तत्र कर्तृपदं किं भवति?
ओ, दृष्टवन्तः चेत् ते दृष्टवन्तः.
ते दृष्टवन्तः. यदि भवती उत्तमपुरुषे वक्तुमिच्छति चेत्
दृष्टः.
मया दृष्टः कर्मणि प्रयोगे भवति. मया दृष्टः कर्मणि प्रयोगे भवति, परन्तु अधुना तत्तु बहु क्लिष्टकरविषयः. अधुना नास्ति. अधुना वयं केवलं कर्तरिप्रयोगे एव वाक्यानि रचयामः. अतः अत्र कर्तृप्रयोगे कर्तृपदम् अहम् इति योजयित्वा वदतु वाक्यम्.
अहं
भवती काश्मीरनगरं गतवती.
काश्मीरनगरं गतवती. तत्र सुन्दरम् उद्यानं पर्वतश्रेणी च सुन्दरदृश्यानि
दृष्टवती. तावदेव, श्रेणीं च दृष्टवती, सुन्दरश्रेणीं च दृष्टवती. किमर्थम् अत्र दृश् धातुः सकर्णकधातुः, अतः किं किं दृष्टवती? पुनः एकवारं किं किं दृष्टवती वदतु.
उद्यानं सुन्दरं दृश्यानि च.
सुन्दरदृश्यानि च
अथवा
यदि सुन्दरदृश्यानि वक्तुमिच्छति चेत् तत्र समासः अस्ति सुन्दराणि दृश्यानि.
सुन्दराणि
इत्युक्ते समस्तपदम् इत्युक्ते तत्र समासं कुर्मः. यदि व्यस्तरूपेण वदामश्चेत् इत्युक्ते समासम् अकृत्वा वदामश्चेत् सुन्दराणि दृश्यानि, नो चेत् सुन्दरदृश्यानि. अर्थभेदः नास्ति, परन्तु वयं तु कार्यं प्रारम्भिकस्तरीयविद्यार्थिनः इति कृत्वा समासं वयं न जानीमः, अतः व्यस्तरूपेण वदामः. व्यस्तरूपेण इत्युक्ते सेपरेट्लि.
दृष्टवती.
उत्तमं.
वयं सर्वे सन्तुष्टाः अभवन्.
अत्र वयं सर्वे सन्तुष्टाः इति वदामश्चेदपि पर्याप्तं भवति. किमर्थं तथा इत्युक्ते तत्र अभवन् इति पदम् अत्र इवन् इफ् यु डोण्ट् से दट् इट् इस् इम्प्लाय्ड्. अभवन् वयं सर्वे सन्तुष्टाः. अभवन् अपि योजयितुं शक्नुमः, परन्तु नो चेत् अपि समीचीनमेव. अत्र उत्तमानि वाक्यानि भगिनि. अत्र सन्तुष्टाः इति पदं तुष् धातुः धातुतः सम् उपसर्गपूर्वकः तुष् धातुः अस्ति. अत्र सन्तुष्टाः इति पदं क्तान्तरूपं क्ताप्रत्ययान्तरूपं सर्वदा भूतकालार्थे एव भवति. सर्वदा भूतकालार्थे सन्तुष्टाः.
धन्यवादः.
धन्यवादः. अनन्तरम् अधुना उमा भगिनी भवती वदतु. अत्र उमा भगिनी
उषा भगिनी अस्ति भगिनि.
उमा वा
उषा वा?
उषा भगिनी.
उषा
भगिनी क्षम्यतां. भवती वदति वा वाक्यानि?
अहं प्रयत्नं करोमि भगिनि.
वदतु. वयं सर्वे अत्र मिलित्वा किञ्चित् प्रयत्नं कुर्मः. अहमपि तदेव करोमि. भवती अपि प्रयत्नं करोतु. उत्तमम्.
अहं मम पत्युः सह सान् आण्टोनियो नगरं यानेन गतवती. अहं रिवर् वाक् स्थले भोजनं करोति नो
अकरोत् अथवा कृतवती
कृतवती. तदनन्तरं मम पत्युः सह वी डिड् लैक् अ वाकिङ्ग्. हौ डु ऐ से
पर्यटनं अथवा अटनं तत्र अटति धातुः अपि योजयित्वा वक्तुं शक्नुमः, नो चेत्
भ्रमति.
भ्रमणं कृतवती.
भ्रमणं कृतवती लैक् द्वे मैल् भ्रमणं कृतवती. अहं लैक् नेचर् हौ डु से नेचर्
प्रकृतिः
प्रकृतिः दृष्ट्वा
प्रकृतिं दृष्ट्वा
प्रकृतिं दृष्ट्वा सन्तुष्टः आसीत्
अत्र भगिनी उत्तमपुरुषे वक्तुमिच्छति भवती अपि च स्त्रीलिङ्गे स्त्रीलिङ्गे वक्तव्यं स्त्रीलिङ्गे वक्तव्यं चेत् सन्तुष्टा तत्र सन्तुष्टः न वदामः अहं सन्तुष्टा किमर्थं स्त्रीलिङ्गे वदामः अपि च सन्तुष्टा अस्मि अथवा आसन्
सन्तुष्टा
आसम् आसम् आसं भगिनि आसम् आसम् नो चेत् अहं सन्तुष्टा अनन्तरम्
अहं सन्तुष्टा
अत्र संस्कृतभाषायां मैल् इत्युक्ते किं वदामः कोऽपि जानाति वा अत्र
योजनम् अस्ति वा भगिनि
योजनद्वयम् इति वदामः वा
योजनद्वयं
द्वे मैल् इति तस्मिन् स्थाने योजनद्वयं किमपि अहमपि दृष्ट्वा वदामि मैल् इत्युक्ते किं वदामः इति अनन्तरं उषा भगिनि इतोपि वाक्यानि सन्ति वा तावदेव
नेक्स्ट् डे लैक् परश्
अनन्तरं
नो नेक्स्ट् डे
अग्रिमे दिने
अहं
किं कृतवती
अग्रिमे दिने अहं मिशन् चर्च् द्रष्टुं गतवती
किं किं दृष्टवती किं द्रष्टुं गतवती
लैक् चर्च्
ओ चर्च् अस्तु
मिशन् चर्च् द्रष्टुं गतवती बह लैक् पुरा लैक् इट्स् अ वेरि ओल्ड् मिशन् चर्च्
अस्तु चर्चं दृष्टवती क्रैस्तवं दृष्टे किं वदामः चर्च् इत्यस्मिन् स्थाने क्रैस्तव देवालयः इति वदामः अस्तु किमपि अस्तु अनन्तरं
क्रैस्त देवालयं द्रष्टुं दृष्टवती अनन्तरं एक्सिबिशन् लैक् हौ डु से एक्सिबिशन् प्रदर्शिनी
इत्युक्ते ईकारान्त यथा नदी
ईकारान्त स्त्रीलिङ्ग प्रदर्शिनी कृतवती
न प्रदर्शिनी इति पदमस्ति प्रदर्शिनीं दृष्टवती
प्रदर्शिनीं दृष्टवती अलमो चर्च् सुन्दरम् अस्ति
अस्तु
तदनन्तरम् अहं भोजनं कर्तुं रेस्टारेण्ट् लैक् भोजन उपाहारगृहं गतवती भोजनं कृत्वा गतवती अतः
न भगिनि अतः इत्युक्ते किम् अतः इत्युक्ते न अतः इत्युक्ते तदर्थं because that's why
then for then
tadanim
griham prati agachami
griham prati
agachami
आगतवती. एतत् सर्वे भूतकाले एव अभवत्. भूतकालार्थे एव वदामः. इत्युक्ते तदनन्तरं गृहं
प्रत्यागतवती.
उत्तमम्. अत्र अहं प्रत्यागतवती इति अपि वक्तुं शक्नुमः, नो चेत् भवती प्रत्यागतवती इति अपि समीचीनं. तत्र तव तु प्रत्ययान्तरूपं योजयित्वा वदामश्चेत् तत्र पुरुषभेदः नास्ति. इत्युक्ते
अहं प्रति आगतवती,
इत्युक्ते अहं प्रत्यागतवती इति अपि वक्तुं शक्नुमः, भवती प्रत्यागतवती इति अपि समीचीनम्. इत्युक्ते अत्र तव तु प्रत्ययान्तरूपं योजयामश्चेत् तत्र पुरुषभेदः, यदि वयं जानीमः एव प्रथमपुरुषः द्वितीयपुरुषः न प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः इति वदामः, तत्र तव तु प्रत्यान्तरूपाणां योजनेन तत्र पुरुषभेदः न भवति, केवलं लिङ्गभेदः वचनभेदः एव तत्र वक्तव्यं.
तव तु प्रत्यय इत्युक्ते सः पठितवान्, सा पठितवती.
तदेव अहम् उक्तवती. यदि अहं किम् उक्तवती इत्युक्ते भवती अपि अहं दृष्टवती इति वक्तुं शक्नोति भवती, अहमपि भवती दृष्टवती इति वक्तुं शक्नोमि. इत्युक्ते तत्र दृष्टवती इति पदं तत्र पुरुषभेदः नास्ति. तदेव वक्तुमिच्छामि. अनन्तरं आं भगिनि, अत्र शोभा भगिनी वदतु वाक्यानि.
आं भगिनि, वयं ग्रीष्मकाले कुत्रापि न गतवान्, गतवती वयं गतवन्तः, किन्तु गतसंवत्सरे वयं भारतदेशं गतवन्तः, केवलम् अभ्यास उद्देशं इतः तः एतेषु पदेषु उपयुज्य अहं रचितवती. गतसंवत्सरे वयम् इतः बेङ्गलूरुम् अगच्छाम.
भगिनि, अत्र एतानि पदानि उपयुज्य एतानि पदानि उपयुज्य अहं वाक्यानि लिखितवती. अत्र एतानि पदानि इति पदद्वयमपि द्वितीयाविभक्तौ एव अस्ति. इत्युक्ते एतानि पदानि तत्र नपुंसकलिङ्गपदम् इति कृत्वा प्रथमाविभक्तौ द्वितीयविभक्तौ तस्य रूपं समानम् इति कृत्वा तत्र, परन्तु तस्मिन् वाक्ये एतानि पदानि इति द्वितीयाविभक्तौ अस्ति. अहम् एतानि पदानि योजयित्वा अथवा एतानि पदानि उपयुज्य वाक्यानि लिखितवती.
एतेषु पदेषु सप्तमी विभक्ति अस्ति.
अत्र तथा वदामश्चेत् एतेषु पदेषु अन्यतमं पदम् उपयुज्य
अन्यतमम्
इत्युक्ते वन् अमाङ्ग् द आल्, वन् अमाङ्ग् द अबौ.
ओ ओ आं भगिनि,
इत्युक्ते अत्र कानिचन पदानि सन्ति तेषु अन्यत् अत्र कति पदानि सन्ति, पञ्चपदानि सन्ति, परन्तु तेषु भवती अन्यतमं पदम् उपयुज्य वाक्यरचनां कृतवती.
तेषु पदेषु पदद्वयम् उपयुज्य वक्तुं शक्नोमि भगिनि.
उत्तमं.
गतसंवत्सरे वयम् इतः बेङ्गलूरुम् अगच्छाम.
यदि एकवचने वक्तुमिच्छति चेत् अगच्छम्,
वयं बहुवचनं भगिनि
बहुवचने वक्तुमिच्छति चेत्
बहुवचने
अगच्छम्
अगच्छम् अपठम् अपठम् अपठाव अपठाम अगच्छाम अगच्छाम
परन्तु अपठाम आगच्छाम इत्युक्ते लोट्लकारः इति चिन्तयामि ओके अस्तु वदतु भगिनि अनन्तरं
ततः अथवा बेङ्गलूरुतः चिदम्बरम् अगच्छाम चिदम्बरतः तञ्जावूर् अत्र भगिनि तञ्जावूर् नगरम् अगच्छाम भवति परन्तु तञ्जावूर् ईकार नास्ति ऊकार नास्ति तत्पदस्य कर्मपदं किं भवति भगिनि तञ्जावूरम्
तञ्जावूरुनगरम् इति नगरम् इति पदं योजयित्वा वदतु
किन्तु अत्र रा हाफ् रा अस्ति इदानीं पृष्टितवती पृच्छामि
वयं तञ्जावूरुनगरं गतवन्तः
गतवन्तः तञ्जावूर्तः मधुरैं वक्तुं शक्नोमि वा भगिनि मधुरैं गतवासरे आचार्यमहोदय उक्तवान् चेन्नैं मधुरैं अगच्छाम ततः तिरुचेन्दूरुनगरम् अगच्छाम
तत्र भगिनि अत्र वयं गतवन्तः इति वदतु अथवा स्त्रीलिङ्गे वक्तुमिच्छति चेत् गतवत्यः
तत्र मम एकः प्रश्नः अस्ति भगिनि अगच्छाम कदा उपयोगं करणीयम्
अत्र लोट्लकारे वदामश्चेत् वदानि वदाव वदाम इति वदामः परन्तु अत्र लङ्लकारः भूतकालार्थे वदामश्चेत् अगच्छम् अगच्छाव अगच्छाम इति एव चिन्तयामि
लङ्लकारे भूतकाले अपटम् अपठाव अपठाम सन्ति अत्र भगिनि
अस्ति चेत् सम्यक् एव
अन्तिम तिरुचेन्दूरुतः गुरुवायूर् गतवन्तः ततः बेङ्गलूरुतः बेङ्गलूरुनगरं प्रत्यागच्छामः प्रत्यागतवन्तः
इत्युक्ते अत्र बेङ्गलूरु प्रति बेङ्गलूरुनगरं प्रति आगतवन्तः इति अर्थः
तावदेव भगिनि
उत्तमं धन्यवादः गीताञ्जलिः भगिनी भवती वदतु
आं भगिनि ग्रीष्मकाले आवयोः पुत्राभ्यां पत्या सह अहं काश्मीरनगरम् एव गतवती एवम् आल्सो भगिनि अन्य विद्यार्थी काश्मीरनगरे लेख रचितवती अतः अहम् एव उपयोज्यते
भवती किं लिखितवती वदतु भगिनि वाक्यानि श्रावयतु प्रथमतया सरलवाक्यानि वदतु तदनन्तरं वयं किञ्चित् क्लिष्टकराणि वाक्यानि परिशीलयामः
वयं दिल्ली नगरतः विमानेन लेह नगरं गतवन्तः
अस्तु
लेह नगरे विमानपतनतः विसतिगृह गतवन्तः
वसतिगृहं लेह भवती किम् उक्तवती नगरस्य नाम किं
लेह
लेह लेह नगरस्य
लेहनगरस्य विमानपतनतः वसतिगृह
नो चेत् लेहनगरे अपि इति वक्तुं शक्नुमः लेहनगरे तदपि समीचीनमेव भवती यद् उक्तवती तत् सम्यक् एव वदतु
तत्र मम पुत्री पतिः च शिरो दुःखम् अनुभवतः
पुनः वदतु किं शिरः
तत्र मम पुत्री पतिः च शिरोदुःखम्
इत्युक्ते शिरोवेदना वा
शिरोवेदना आं भगिनि हेडेक् शिरोवेदना
अस्तु अस्तु शिरोवेदना अनुभूतवन्तः तौ द्वौ अपि अनुभूतवन्तौ
अनुभूतवन्तौ आं भगिनि अनुभूतवन्तौ तथा अहम् एतौ विसतिगृहतः
वसतिगृहतः
क्षम्यतां वसतिगृहतः चिकित्सालयं नयामि नीतवती चिकित्सालये बहु पर्यटकाः सन्ति पुनः वदतु
तत्र बहवः पर्यटकाः सन्ति पर्यटकाः इत्युक्ते किं वदतु पर्यटकाः इत्युक्ते टूरिस्ट् पर्यटकाः तत्रापि सन्ति अनन्तरं
बहु पर्यटकाः सन्ति
बहवः किमर्थं चेत् तत्र पुंलिङ्ग बहुवचनं
ते सर्वे शिरोवेदना अनुभवन्तः सन्ति
इत्युक्ते किं भगिनि अत्र अनुभवन्तः सन्ति इत्युक्ते अत्र स्वतन्त्रप्रयोगं कुर्मः इत्युक्ते वेन् यु वेण्ट् दे आर् आल्सो फीलिङ्ग् द सेम् वे लैक् दे आर् आल्सो एक्स्पीरियन्सिङ्ग् द सेम् हेडेक्
आं भगिनि
तदेव भवती वक्तुमिच्छति तद् इत्युक्ते तत्र चिकित्सालये सर्वे पर्यटकाः शिरोवेदनाम् अनुभूतवन्तः सन्ति तदा उत्तमं तदनन्तरं किम् अभवत्
वैद्यः माम उक्तवान् पर्यटकानां श्वासः अपर्याप्त अनुभवन्तः अतः चिकित्सालयम् आक्सिजन् स्वीकर्तुम् आगच्छन् आगच्छ गच्छवन्तः.
अहं भवत्या किमुक्तम् अहं न अवगतवती, मया न अवगतम्. तत्र कोऽपि पर्यटकः भवतीं पृष्टवान् वा?
न न, अहं वैद्य पृष्टवान् किमर्थं सर्वे शिरोवेदना सन्ति, अनुभवन्तः सन्ति.
भवती एव तत्र वैद्यः अस्ति, भवती एव तत्र वैद्यः अस्ति, वैद्यं पृष्टवती किमर्थं सर्वे एतत् एतादृशरीत्या सर्वे शिरोवेदना किमर्थम् अनुभूतवन्तः इति भवती एव पृष्टवती. तदनन्तरम्
अनुभूतवन्तः. वैद्यः
अवदत्
वैद्यः अवदत् पर्यटकानां श्वासः अपर्याप्तम् अनुभवतवन्तः. अतः चिकित्सालयम् आक्सिजन् स्वीकर्तुम् आगतवन्तः.
अस्तु.
भगिनी सम्यक् वाक्यं सन्ति,
सम्यक् एव. तावदेव.
तदानीं वयं सम्यक् आस्म. काश्मीरस्य जनानां सह पर्वतदेशे भ्रमन्ति
भ्रमितवन्तः.
भ्रमितवन्तः सुखम् अनुभवाम च.
सुखमपि अनुभूतवन्तः. उत्तमं. सर्वाणि वाक्यानि तावत् प्रत्ययान्ते एव उपयुज्य. तावत् प्रत्ययं सुलभः प्रत्ययः इत्युक्ते तावत् प्रत्ययं योजयित्वा वदामश्चेत् वाक्यानि सुलभानि भवन्ति. तदर्थमेव. परन्तु लङ्लकारः किञ्चित् स्मर्तव्यं. वि नीड् टु रिमेम्बर् दोस् लङ्लकारपदानि. उत्तमं, धन्यवादः. अधुना वयं अभ्यासपुस्तकं प्रति गच्छेम. अत्र शोभा भगिनी, भवती, अहं किञ्चित् पृच्छामि, कांश्चन प्रश्नान् पृच्छामि, भवती किञ्चित् वदतु अत्र. अधुना वयं शीघ्रं मन्दम् इति पदद्वयम् अधुना वयं पदद्वये विषये किञ्चित् पठामः. अत्र यदि भवती अश्वं पश्यति चेत् अश्वः कथं धावति?
शीघ्रं धावति.
उत्तमं. सिंहः कथं धावति?
सिंहः कथं धावति? सिंहः शीघ्रं धावितुं शक्नोति.
उत्तमं. शशकः कथं धावति?
शशकः शीघ्रं धावति.
विमानं कथं चलति?
विमानम् अतिशीघ्रं चलति.
उत्तमं. वृद्धः कथं चलति?
वृद्धः मन्दं चलति. मन्दः
लोकयानं इत्युक्ते अत्र शीघ्रं मन्दं पदद्वयमपि अव्ययं. शीघ्रम् अपि च मन्दं पदद्वयमपि अव्ययं. तदर्थं लोकयानं कथं चलति?
लोकयानं शीघ्रम् एव चलति. लोकयानं शीघ्रम् अथवा मन्दम्?
अथवा मन्दम्.
अथवा मन्दं चलति.
उत्तमं. गजः कथं चलति?
गजः अतिमन्दं चलति भगिनि.
इत्युक्ते भवती कार्यानं कथं चालयति?
पुनरेकवारं वदतु भगती भगिनी.
भवती कारयानं कथं चालयति?
अहं कारयानं
किमपि
कारयानं शीघ्रम् अथवा मन्दं स्थित्यानुसारं
उत्तमं चालयामि. तावदेव उत्तमम्. इत्युक्ते यदि माता गृहकार्यं करोति चेत् कथं करोति?
शीघ्रं करोति.
पिता गृहकार्यं करोति चेत् कथं करोति?
वयं न जानीमः, शीघ्रं करोति एव
न जानीमः. उत्तमं. तावदेव. इत्युक्ते अत्र साधारणतया विमानस्य अपेक्षया लोकयानं मन्दं चलति.
मन्दम्
अत्र केवलं तुलना अस्ति. यदि तुलनां कुर्मः चेत् साधारणतया यदि माता गृहकार्यं करोति चेत् शीघ्रं करोति, पिता करोति चेत् मन्दं. किमर्थम् इत्युक्ते तस्य अपेक्षया यदि तुलनां कुर्मः चेदेव, परन्तु तत्तु सत्यं नास्ति. किमर्थं? केवलम् अभ्यासार्थं वदामि. अनन्तरं यदि भवती वक्तुमिच्छति चेत् भवती किं किं शीघ्रं करोति, किं किं मन्दं करोति वदतु इच्छति चेत्.
ध्यानं मन्दं करोमि, मन्दं अत्र अहं न जानामि तत्पदम् उचितम् अस्ति न वा. कार्यं शीघ्रं करोमि, पचन पाकं शीघ्रं करोमि, पठनं शीघ्रम् अथवा मन्दं,
इत्युक्ते स्थित्यानु तत्र
स्थित्यानुसारं स्थित्यानुसारं
उत्तमं. अनन्तरं धन्यवादः. भूमा भगिनी भवती वदतु, भवती किं किं शीघ्रं करोति, किं किं मन्दं करोति?
अहं आध्यात्मिकपठनं मन्दं मन्दं करोमि, गृहकार्यं शीघ्रं करोमि. तर्हि समयं अनेक नानाविधकार्याणि कर्तुं शक्नोमि.
अस्तु,
समयमस्ति.
अनन्तरम् उषा भगिनी भवती वदतु, भवती किं शीघ्रं करोति, भवती शीघ्रं मन्दं करोति?
अहं गृहकार्यं शीघ्रं करोमि, अहं निट्टिङ्ग् क्विल्टिङ्ग् शीघ्रं करोमि, अहं गीतापठनं मन्दं करोमि, अहं वीविङ्ग् लैक् हौ डु यु से फर् वीविङ्ग् लैक्
वीविङ्ग् वदामि, दृष्ट्वा वदामि. अनन्तरं
मन्दं करोमि,
तन्तुवायः इत्युक्ते वीवर्
तन्तुवायम्
इत्युक्ते तत्र तन्तुः इत्युक्ते थ्रेड्, तन्तुवायः इत्युक्ते वीवर्.
वीविङ्ग् लैक् तन्तुवायं
भगिनी शोभा भगिनी भवती पश्यतु डिक्षनरी, तत्र शब्दकोशं दृष्ट्वा वदतु अधुना यदि भवती वक्तुं शक्नोति चेत्, अथवा अहम् अपि द्रष्टुं दृष्ट्वा वदामि. अनन्तरं वदतु.
अहं संस्कृतपाठं मन्दं करोमि, अहं पाकं शीघ्रं करोमि, अहं स्नानं शीघ्रं करोमि, अहं लैक् झाडु लैक् स्वीपिङ्ग् हौ डु यु से
मार्जनक्रिया इत्युक्ते अत्र प्रक्षालनं वा मार्जनं,
अहं मार्जनं क्रिया मन्दं करोमि.
अत्र वयति वयति इत्युक्ते क्रिया वयनम् इत्यपि यथा पठति पठनं तथा एव वयति क्रियापदं.
वयति वयति इत्युक्ते किं भवति?
वीविङ्ग् वीविङ्ग् भवती पृष्टवती.
धन्यवादः.
वयति वयति इति क्रियापदमस्ति, वयनम् इति लुडन्तपदं क्रिया क्रियां सूचयति. यदि पठति इति क्रियापदं पठनक्रिया इति वदामश्चेत् पठनं, श्रव शृणोति श्रवणं तथा एव वयति वयनं लुडन्त अहं रूपाणि वदतु.
अहं वयनं मन्दं करोमि
अथवा वयामि. अहं मन्दं वयामि
वयामि. मैल् इत्युक्ते क्रोशक.
ओ क्रोस् क्रोशक अस्तु. धन्यवादः. धन्यवादः. तदनन्तरं गीताञ्जलि भगिनी भवती वदतु अत्र भवती किं शीघ्रं करोति किं मन्दं करोति.
अहं पाकं शीघ्रं करोमि. अहं प्रक्षालनं शीघ्रं करोमि. अहं प्रतिदिनं एकघण्टां चलनं शीघ्रं करोमि.
एकघण्टापर्यन्तं शीघ्रं चलामि.
एकघण्टापर्यन्तं शीघ्रं चलनं करोमि.
चलनं करोमि चलामि
चलनं करोमि सम्यक् नास्ति.
सम्यक् एव इत्युक्ते चलनं करोमि इत्यपि सम्यक्. तत्र चलनम् इति पदं लुडन्तपदं तदपि सम्यक् एव.
अहं आङ्ग्लभाषा वदनं शीघ्रं करोमि. अहं संस्कृतभाषां भाषा पठनं वदनं अवगमनं च मन्दं करोमि.
भाषायाः अवगमनं
भाषायाः
संस्कृतभाषायाः अवगमनं मन्दं करोमि. अत्र स्वीपिङ्ग् इत्युक्ते सम्मार्जनम्. अत्र स्वीपिङ्ग् सम्मार्जनी इत्युक्ते अत्र परिकरमस्ति, तस्य नाम एव सम्मार्जनी. स्वीपिङ्ग् इत्युक्ते सम्मार्जनं.
अहं मन्दं सम्मार्जनं करोमि. अहं मन्दं गायामि.
उत्तमं भगिनि. तदनन्तरम् अग्रे गच्छेम. अधुना वयम् उच्चैः भवती एव वदतु उच्चैः शनैः इति पदद्वयं यदि भवती जानाति चेत् शिशुः कथं रोदिति?
शिशुः उच्चैः रोदिति.
यदि वृद्धा रोदिति चेत् कथं रोदिति?
यदि वृद्धा रोति चेत् वृद्धा शनैः रोदिति.
उत्तमं. यदि युवकः वदति चेत् कथं वदति?
युवकः उच्चैः वदति.
उत्तमम्. इत्युक्ते तथा एव सिंहः कथं गर्जति?
सिंहः उच्चैः गर्जति.
उत्तमम्. अनन्तरं कुक्कुरः कथं भाषति?
कुक्कुरः कुक्कुरः उच्चैः एव भाषति.
भाषति. उत्तमं. यदि भवती मन्त्रं पठति चेत् कथं पठति?
अहं मन्त्रं शनैः पठामि।
उत्तमं। यदि भवती जपं करोति चेत्, ध्यानं करोति चेत् कथं करोति?
यदि अहं ध्यानं करोमि अति शनैः करोमि।
उत्तमं। तथा एव भवती चलनचित्रं पश्यति चेत् तत्र खलनायकः अस्ति। खलनायकः इत्युक्ते?
आं भगिनि, खलनायकः उच्चैः
कथं हसति,
सर्वे करोति,
सर्वमपि उच्चैः एव करोति सः खलनायकः। अनन्तरं नायकः कथं करोति?
नायकः धार्मिकः नायकः शनैः वदति, किन्तु अधार्मिक नायकः उच्चैः वदति।
अधार्मिकः उच्चैः वदति, सम्यक् उक्तवती भवती। उत्तमम्। अनन्तरं
प्रश्नः, ककुरः किं पदस्य अर्थं किम् अस्ति भगिनि?
कुक्कुरः। गीताञ्जलि भगिनी वदतु, कुक्कुरः वदतु भगिनि। गीताञ्जलि भगिनि,
युनो मुर्गा, कॉक, लाइक अ हेन।
न भगिनि, अत्र पश्यतु।
ओ डॉग।
कुक्कुटः भिन्नः, कुक्कुरः भिन्नः। कुक्कुटः इत्युक्ते हेन्। उत्तमम्। अत्र कुक्कुरः भाषति,
शुनकः कुक्कुरः। अन्यप्रश्नः अस्ति भगिनि, ध्यानम् उष्णीं करोमि वक्तुं शक्नोमि वा?
उत्तमं। तूष्णीं करोमि,
तूष्णीं करोमि।
इत्युक्ते अत्र तूष्णीम् इति पदम् अव्ययं, तूष्णीं तिष्ठतु, मा वदतु इति वदामः साधारणतया। यदि कोऽपि वदति चेत् भवान् तूष्णीं तिष्ठतु भोः, मा वदतु इति वदामः, तत्र तूष्णीम् इत्युक्ते निःशब्दं,
सैलेन्स्,
शब्दं विना।
भगिनि, स्वर्ग दीर्घ,
दीर्घः एव, दीर्घत्वम् अस्ति भगिनि, तूष्णीम्। इत्युक्ते मूकः भूत्वा अथवा शब्दं विना तिष्ठति, अहं तूष्णीं तिष्ठामि, अहं किमपि न वदामि। उत्तमं, तदपि समीचीनमेव। अधुना भूमा भगिनी, भवती वदतु, भवती किं किं करोति उच्चैः अपि च शनैः?
उच्चैः स्तोत्रपाठं करोमि, शनैः ध्यानं करोमि, पूजां करोमि च।
उत्तमम्।
अतिथिसत्कारं करणीयं चेत् अहं शनैः करोमि।
उत्तमम्।
यदि अहं कार्यं परेण कर्तुम् इच्छामि चेत् उच्चैः वदामि।
अत्र भगिनि त्वरया, किमर्थं चेत् तत्र त्वरा इति पदम् आकारान्तस्त्रीलिङ्गपदं, तदर्थम् अहं त्वरया अत्र पश्यतु, त्वरया इत्युक्ते शीघ्रम्। अत्र परन्तु अत्र अभ्यासः कः? उच्चैः शनैः,
उच्चैः वदामि।
भवती एव वदतु, अत्र भेदः कः? शीघ्रं मन्दम्, पदद्वयम् अस्ति. उच्चैः शनैः पदद्वयम् अन्य पदद्वयम् अस्ति. भेदः कः तयोर्मध्ये?
शीघ्रं फास्ट्.
उच्चैः शनैः इत्युक्ते
लौड्.
भेदः अस्ति इत्युक्ते अत्र शब्दविषये एव वदामः. उच्चैः शनैः परन्तु अत्र शीघ्रं मन्दं वदामश्चेत् तत्र कथं गच्छति, कथं रोदिति, कथं चलति, कथं तथा कथं कार्यं करोति इत्यस्मिन् विषये एव तत्र शीघ्रं करोमि, मन्दं करोमि इति वदामः. परन्तु अत्र शब्दविषये वदामश्चेत् उच्चैः शनैः. अनन्तरं वदतु.
कर्मचारिणायां कार्यं करणीयं चेत् उच्चैः एव अहं
वदामि. अत्र
कर्मचारिणा
किमर्थम् अत्र कर्मचारी नकारान्तपदम् अपि च तत्र णत्वं भवति. इत्युक्ते नकारस्य दन्तनकारस्य स्थाने मूर्धन्य नकारादेशः भूत्वा तृतीयाविभक्त्यन्तरूपं तदर्थं कर्मचारिणा. उत्तमं. अधुना उषा भगिनी भवती वदतु, भवती किं किं करोति उच्चैः अपि च शनैः?
अहम् उच्चैः हसामि, अहम् उच्चैः श्लोकं पठामि, अहं शनैः चलामि.
उत्तमम्.
अहं शन ग्रन्थालये च लैक् कार्यालयं शनैः वदामि. मम पुत्री शनैः कार्यं करोति. मम पुत्रं उच्चैः वदति.
पुत्रः
शनैः उच्चैः वदति. वृद्धः शनैः चलति. बालः शिशुः शनैः चलति.
उत्तमं. यदि वयं सूचनां दद्मः चेत् कथं सूचना दातव्यं? If we want to instruct somebody, सूचना कथं दातव्या?
त्वं शनैः चलसि.
न भगिनि, यदि वयं सूचनां दद्मः, if we want to give some instructions, suchana kadham datavya?
Lotlakar.
Kadham datavya? Lotlakar. Uttamo. Sanskrita bhashaya. Lotlakar. Itchukte.
Shanehi vadatu.
Itchukte mama prashnaha kaha itchukte. Uchehi vaktavyam va. No chet shanehi vaktavyam va.
Shanehi.
Shanehi eva vaktavyam.
Shanehi.
No chet te. न शृण्वन्ति सूचना दातव्या चेत् शनैः एव वक्तव्यं.
शनैः एव वक्तव्यं. लैक् अ सर्वेण्ट् लैक् सर्वेण्ट् लैक् हौ डु यु से सर्वेण्ट्?
भूमा भगिनी उक्तवती कर्मचारी.
ओके.
कर्मचारी पुंलिङ्गपदं.
कर्मचारी शनैः.
यदि स्त्री कर्मचारी स्त्रीलिङ्गे वदामश्चेत् किं वदामः? भूमा भगिनी वदतु.
कर्मचारिणा.
कर्मचारिणा इति तृतीयान्तरूपं, परन्तु प्रथमाविभक्त्यन्तरूपं किं भवति? कर्मचारिणी. यथा विद्यार्थी
विद्यार्थिनी.
परन्तु कर्मचारिणा इति वदामश्चेत् पुंलिङ्गे तृतीयाविभक्त्यन्तरूपम् एकवचनम्. कर्मचारिणा कार्यं करणीयं
करणीयं शनैः
अथवा कार्यं कारितं वदतु भगिनि शनैः वद उत्तमं
शनैः वद
उत्तमं तावदेव गीताञ्जलि भगिनि भवती वदतु त्वं वद
अहं कदाचित् पुत्रौ उच्चैः उक्तवती किन्तु अधुना तौ वर्धयन्तः अतः अहं शनैः वदामि
उत्तमं द्वौ पुत्रौ
द्वौ एक पुत्रः एक बालिका
एक पुत्री अपि अस्ति अस्तु
अहं अहं सर्वे कुटुम्बेन जनाः शनैः वदामि
कुटुम्बजनैः सह जनैः सह
जनैः सह कुटुम्ब जनैः सह शनैः वदामि यदि बहु शब्दाः सन्ति तदा
यदि उक्तवती यदि उक्तवती चेत् तर्हि वक्तव्यं
हा तर्हि
यदा वक्तुं यदा यदि भवती यदा वक्तुमिच्छति चेत् तदा वक्तव्यं युगळ पदद्वयं युगळ युगळं कृत्वा वदतु
यदि बहु शब्दाः वातावरणे सन्ति तर्हि अहम् उच्चैः वदामि
उत्तमम् ओ भवती एव वदतु अत्र पठतु भगिनी पञ्चत्रिंशत्तमे पुटे 10.1 आभागे तत्र अभ्यासपुस्तके सर्वे अभ्यासपुस्तकं पश्यन्तु अभ्यासपुस्तके किं दत्तमस्ति भवन्तः जानन्ति एव भगिनी पठतु
शीघ्रं मन्दम् उच्चैः शनैः एतेषु उचितेन रूपेण रिक्तस्थानं पूरयतु
अत्र वाक्यानि सन्ति वाक्यानि अपि पठतु उदाहरणार्थम् उदा इति दत्तमस्ति
उदाहरणार्थं सः मन्दं भोजनं
भगिनि न न अत्र शीघ्रं मन्दम् अत्र उदाहरणार्थं वाक्यं दत्तमस्ति अश्वः तदपि पठतु अन्येषां कृते पठतु
अश्वः शीघ्रं गच्छति कूर्मः मन्दं गच्छति उच्चैः शनैः सिंहः उच्चैः गर्जति बालिका शनैः गायति अभ्यासं शीघ्रं मन्दम् उच्चैः शनैः एतेषु उचितेन रूपेण रिक्तस्थानं पूरयतु सः मन्दं भोजनं करोति उन्मत्तः
अहं पृच्छामि भगिनी अहं पृच्छामि सः मन्दं भोजनं करोति परन्तु अत्र भोजनं कथं करणीयं
भोजनं मन्दं करणीयं भगिनी
किमर्थं
स्वास्थ्यलाभेन भोजनं मन्दम् उचितम् अस्ति
अस्तु इत्युक्ते अहं चिन्तयामि भोजनं न्यूनातिन्यूनं त्रिंशत् निमेषपर्यन्तं करणीयम् इत्युक्ते सम्यक् चर्वणं कृत्वा भोजनं खादनीयम् उत्तमम् अनन्तरं पठतु
उन्मत्तः उच्चैः हसति
उन्मत्तः इत्युक्ते कः
उन्मत्तः यस्य मतिः उचित सम्यक् नास्ति सः उन्मत्तः अस्ति
उत्तमं यस्य मतिः सम्यक् नास्ति स एव उन्मत्तः अत्र पश्यन्तु उन्मत्तः इति पदमस्ति अत्र पदद्वयमस्ति उत् उपसर्गपूर्वकः मत्तः अत्र उत् तकारस्य स्थाने नकारादेशः अभवत् अतः तत् अत्र सन्धिः भवति सन्धेः नाम अनुनासिकसन्धिः तत्र सूत्रमस्ति यरोऽनुनासिकेऽनुनासिको वा इति सूत्रमस्ति अत्र अनुनासिकसन्धिं कृत्वा तकारस्य स्थाने प्रथमतया दकारः आगच्छति तदनन्तरं तत् वर्गस्य अनुनासिकव्यञ्जनम् आगच्छति इत्युक्ते तवर्गीय अनुनासिकव्यञ्जनं किं वदतु भगिनि भवती सन्धिवर्गं गच्छति तदर्थं पृच्छामि न न भगिनि अहं किं पृष्टवती तवर्गीय अनुनासिके व्यञ्जनं किं
तवर्गीय
इत्युक्ते अत्र तकारस्य स्थाने नकारादेशः अभवत् उत्तमम् अत्र उत्तमं भगिनि तदनन्तरं शोभा भगिनी भवती वदतु अत्र उन्मत्तः तस्य मनः सम्यक् नास्ति तदर्थं सः हसति हसनक्रियायां बहूनि रूपाणि सन्ति भवती जानाति चेत् वदतु
भगिनि हसति हसतः हसन्ति
हसति हसतः हसन्ति इत्युक्ते क्रियापदानि उक्तवती
क्रियापदानि भवती किम्
अहं किं पृष्टवती इत्युक्ते हसनक्रियायां हसनक्रिया बहुप्रकारकम् अस्ति इत्युक्ते अत्र
मन्दस्मिता अस्मिता
इत्युक्ते किं वदामः इत्युक्ते मन्दहासं दरहासं
किं भगिनि दरहासं
उपहासं उपहासं परिहासं
परिहासं लाफिङ्ग् अट् समवन्
अट्टहासम् इत्युक्ते चलनचित्रं पश्यामश्चेत् अत्र खलनायकः अस्ति सः अट्टहासं करोति
उन्मादेन अट्टहासं करोति
उत्तमं तदनन्तरं अधुना अभ्यासपुस्तके तृतीयं वाक्यं भवती पठतु
मम माता शीघ्रं कार्यं करोति न शृणोमि कृपया किञ्चित् उच्चैः वदतु
चत्वारि
भवति चतुर्थं वाक्यं भवति शनैः सम्भाषणं करोतु
अत्र
एकः प्रश्नः अस्ति शनैः अर्थं द्वे अर्थम् अस्ति भगिनी शनैः स्लोलि क्वायट्लि
शनैः इत्युक्ते अहं चिन्तयामि शनैः इत्युक्ते अर्थद्वयम् अस्ति
अर्थद्वयं पञ्चमवाक्यं न शृणोमि करोमि शीघ्रं प्रस्थानं करोतु विलम्बः भवति
शीघ्रं प्रस्थानं करोतु, विलम्बः भवति. अत्र प्रस्थानम् इत्युक्ते किं?
प्रस्थानं गेट् रेडी टु प्रस्थानं आङ्ग्लभाषायां.
अत्र पूर्वस्मिन् पुटे वयं जानीमः, पूर्वस्मिन् पुटे शङ्करः इति कुत्र कुत्र गतवान् इति अभ्यासः अस्ति. शङ्करः बेङ्गलूरुतः प्रस्थाय दक्षिणभारतप्रवासं कृतवान्. तत्र प्रस्थाय रूपं किम्?
बेङ्गलूरुतः प्रस्थाय लीविङ्ग् बेङ्गलूरु.
इत्युक्ते तत्र प्रस्थाय इति पदं ल्यबन्तरूपं, ल्यप् प्रत्ययान्तरूपम्. इत्युक्ते अत्र प्र उपसर्गपूर्वकः स्था धातुः अस्ति.
स्थिताय पदम् इफ् यु पुट् आपोसिट् अस्ति किं भगिनि? स्थिताय प्रस्थाय
विरुद्धार्थकपदं किमर्थम्? अहं किं वक्तुमिच्छामि इत्युक्ते अत्र प्रस्थाय इति ल्यबन्तपदं किमर्थं चेत् तिष्ठति, स्था इति धातुः अस्ति, स्था धातुतः तिष्ठति इति क्रियापदम् आगच्छति. परन्तु त्वान्तरूपं वदामश्चेत् स्थित्वा तिष्ठति इति पदस्य त्वान्तरूपं स्थित्वा. परन्तु यदि उपसर्गं योजयामश्चेत् तदा ल्यबन्तरूपम् आगच्छति. ल्यबन्तरूपं साधारणतया तस्य अन्ते यकारं
भवति,
यकारः आगच्छति. अधुना शब्दः अस्ति, अधुना प्रस्थाय इति पदं ल्यबन्तरूपं. परन्तु अत्र प्रस्थानम् इति पदमस्ति. प्रस्थानम् इति पदं ल्युडन्तपदं, प्रस्थाय इति ल्यप् प्रत्ययान्तरूपम्. अत्र प्रस्थानम् इत्युक्ते जर्णि. अनन्तरम् अग्रिमं वाक्यम्.
इतोपि समयः अस्ति, मन्दं भोजनं करोतु.
मन्दं भोजनं करोतु, उत्तमम्. अत्र इतोपि इति पदमस्ति. इतोपि इत्यस्मिन् पदे पदद्वयमस्ति, उहां करोति वा?
इति अपि,
इतः
अपि, इतः अपि समयः अस्ति.
इतः अपि इति पदद्वयमस्ति. अत्र प्रथमतया इतः, अत्र विसर्गः अस्ति, विसर्गसन्धिः भवति. प्रथमतया विसर्गस्य स्थाने उकारादेशः भवति. तत्र एकं सूत्रमस्ति, तत् किमित्युक्ते विसर्जनीयस्य सह अतिहषि च ऊत्वम् इति सूत्रमस्ति, भाट्टसूत्रं, भाट्टमहोदयेन विरचितं सूत्रमस्ति. विसर्जनीयस्य सह अतिहषि च ऊत्वं. तदनन्तरं किं भवति इत्युक्ते उकार अकारयोः स्थाने किं भवति? गुणसन्धिः भवति. गुणसन्धिः भूत्वा तत्र ओकारः आगच्छति. तदनन्तरं तत्र पूर्वरूपसन्धिः भवति. यदा कदापि पूर्वरूपसन्धिः भवति चेत् तत्र अकारस्य स्थाने अवग्रहचिह्नं स्थापयामः. तत्र यस् यु केन् फैण्ड् ए सिम्बल् लैक् यस् तत्र यस् मार् इव जस्ट् लैक् यस् यु केन् सी ए सिम्बल् हियर्. तस्य नाम अस्ति अवग्रहचिह्नं. यदि
सन्धिः सोऽहं पदम् एव भवति,
तथा एव भवति. इत्युक्ते अत्र सन्धित्रयं भवति. इत्युक्ते प्रथमतया विसर्गसन्धिः, तदनन्तरं गुणसन्धिः, तदनन्तरं पूर्वरूपसन्धिः भवति. यदा कदापि पूर्वरूपसन्धिः भवति चेत् तदा पूर्वरूपम् आगत्य अत्र अवग्रहचिह्नं स्थापयामः. तस्य नाम अस्ति यस् मार्क् यस् इव दृश्यते तस्य नाम अस्ति अवग्रहचिह्नम्. इतोपि समयः अस्ति तदर्थं मन्दं भोजनं करोतु. उत्तमम्. अनन्तरम्
एतत् लोकयानं सर्वदा शीघ्रं गच्छति अथवा सर्वदा मन्दं गच्छति अपि वक्तुं शक्नुमः.
अनन्तरम्
अत्र शिशुः निद्रां करोति, कृपया शनैः वदतु.
उत्तमम्.
सः भाषणं करोति, ध्वनिवर्धकम् एव न आवश्यकम्. सः उच्चैः भाषणं करोति, ध्वनिवर्धकम् एव न आवश्यकम्.
उत्तमम्. इत्युक्ते ध्वनिवर्धकम् इत्युक्ते
लौड् स्पीकर् मैक्रोफोन् प्लस्
स्पीकर्. उत्तमं. स्पीकर् इत्युक्ते आम्प्लिफायर् किमपि. उत्तमम्. अत्र अस्मिन् अत्र उपरितने वाक्ये अत्र शिशुः निद्रां करोति इति वाक्यमस्ति. तत्र निद्राम् इति पदस्य विभक्तिः का?
निद्रा निद्रा निद्रां द्वितीयविभक्ति.
उत्तमम्. तत्र निद्रां करोति इत्युक्ते अत्र क्रूधातुः सकर्मकधातुः, तदर्थं कर्मपदं स्वीकरोति. तत्र पदमस्ति निद्रा, परन्तु अत्र निद्रां द्वितीयविभक्तौ अस्ति. उत्तमं. तावदेव. तदनन्तरम् अत्र उषा भगिनी, भवती अत्र कथम् इत्यस्मिन् विषये किञ्चित् वदतु भगिनि. अहं प्रश्नं पृच्छामि. वदतु भगिनि. वदतु.
निद्रां पदं द्वितीयविभक्ति पदम् अस्ति, किन्तु वचनं कः? वचनं किं
भवती वदतु, वचनं किम्?
इदानीं एकवचनं, किन्तु बहुवचनं, यदि बहुवचनं पदम् अस्ति तर्हि अहं न जानामि.
इत्युक्ते आकारः पदं भगिनि.
निद्राः
न भूमा भगिनी भवती वदतु. लता शब्दः इव
लतां लते लताः
निद्राः.
तावदेव. अधुना भवती एव करोतु, नो चेत् भवती वदतु. अधुना वयं कथम् इत्यस्मिन् विषये किञ्चित् चिन्तनं कुर्मः. वयं जानीमः एव अत्र कथं. भवत्याः स्वास्थ्यं कथमस्ति?
सम्यक् अस्ति.
वदतु. उषा भगिनी उक्तवती. उत्तमं. भवत्याः स्वास्थ्यं सम्यक् अस्ति. यदि भवती चलनचित्रं गत्वा चलनचित्रमन्दिरं गत्वा चलनचित्रं दृष्टवती चेत् चलनचित्रं कथमस्ति?
चलनचित्रम् उत्तमम् अस्ति.
उत्तमम्. अनन्तरं यदि किञ्चित् ग्रन्थं पठितवती चेत् ग्रन्थं कथमस्ति? ग्रन्थः
समीचीनम् अस्ति.
समीचीनमस्ति. उत्तमम्. अत्र अभ्यासपुस्तके भवती पठतु. अत्र चत्वारि पदानि दत्तानि, सम्यक्, समीचीनम्, उत्तमं, सुन्दरम्. अत्र चत्वारि पदानि, तेषां कृते एकः अभ्यासः अस्ति. भवती पठतु अत्र 36वें पुटे अभ्यासपुस्तके.
सम्यक्, समीचीनम्, उत्तमं, सुन्दरम् एतेषां प्रश्नानाम् उत्तरं लिखतु. यथा आरोग्यं कथम् अस्ति? आरोग्यं सम्यक् अस्ति. वातावरणं कथम् अस्ति? वातावरणं समीचीनम् अस्ति. बालकः कथं धावति? बालकः सम्यक् धावति. एतत् वस्त्रं कथम् अस्ति? एतत् वस्त्रम् उत्तमम् अस्ति. भीमसेनजोशी कथं गायति? भीमसेनजोशी सुन्दरं गायति. टेण्डुल्कर् कथं क्रीडति? टेण्डुल्कर् उत्तमं क्रीडति.
उत्तमम्. अधुना एतेषां प्रश्नानाम् इति पदद्वयमस्ति. लिङ्गं वचनं विभक्तिः का वदतु?
एतेषां
एतेषां प्रश्नानाम्
उत्तमम् एतेषां एतानि सप्तमीविभक्ति बहुवचनं
सम्यक् न भगिनि. एतेषां प्रश्नानाम् भूमा भगिनी वदतु.
षष्ठीविभक्ति बहुवचनं.
उत्तमम्. अनन्तरम् अत्र भगिनी उषा भगिनी भवती वदतु, भवत्याः आरोग्यं कथमस्ति?
मम आरोग्यं सम्यक् अस्ति.
अद्य वातावरणं कथमस्ति?
अद्य वातावरणं
कथमस्ति? यत्र भवती वसति तत्र कथमस्ति?
सुन्दरम् अस्ति.
सुन्दरम् अस्ति. उत्तमं. स्वस्य वाक्यैः कानिचन वाक्यानि वदतु, सम्यक् अथवा समीचीनम्, उत्तमम् अथवा सुन्दरं, कोऽपि पदं योजयित्वा वदतु.
उद्याने पुष्पं सुन्दरम् अस्ति. समीचीनं समीचीनं
किमपि. भोजनं कथमस्ति?
भोजनं समीचीनम् अस्ति. संस्कृतपाठम् उत्तमं, संस्कृतश्लोकम् उत्तमम् अस्ति.
उत्तमम्. तावदेव. सम्यक् भगिनि. तदनन्तरम् अधुना शोभा भगिनी अत्र 10.1 भागे अत्र अन्यम् अभ्यासमस्ति, तदपि कुर्मः. भवती पठतु अत्र अभ्यासं. पठतु.
एतेषाम् उत्तराणां प्रश्नान् लिखतु. यथा उद्यानं सुन्दरम् अस्ति, उद्यानं कथम् अस्ति, भोजनम् उत्तमम् अस्ति, भोजनं कथम् अस्ति, एतत् चलनचित्रं सम्यक् नास्ति, एतत् चलनचित्रं कथम् अस्ति, तत् पुस्तकम् उत्तमम् अस्ति, तत् पुस्तकं कथम् अस्ति, सः सर्वं कार्यं सम्यक् करोति, सः कार्यं कथं करोति, अथवा सः सर्वं कार्यं कथं करोति. रामायणं बहु विस्तृतम् अस्ति, रामायणं कथम् अस्ति.
उत्तमं. तावदेव. इत्युक्ते यदि वयम् अत्र उद्यानं सुन्दरम् अस्ति इति वदामश्चेत् तत्र प्रश्नवाचकवाक्यं किं भवति? उद्यानं कथम् अस्ति इति भवति. अत्र उद्यानम् इति पदमस्ति, तत्रापि अत्र उत् उपसर्गपूर्वकः यानम् इति पदद्वयमस्ति तस्मिन्. उत् यानं वयं जानीमः एव, यानम् इति इत्युक्ते यानम् इत्युक्ते वयं जानीमः. उद्यानम् इत्युक्ते अहम् आङ्ग्लभाषायां वदामि, that is the place that will elevate your mood. Udyanam.
That is yanam the actual means meaning. Yanam means bhagini lokayanam, car yanam.
Yanam. Tadeva.
Yanam, what is the actual meaning for yanam?
Tool.
Tool na. Parikaranam. Upakaranam, karanam, ichukte tool. Parantu atra yanam ichukte yadha pavati uktavati lokayanam ichukte baseva. Parantu atra kim badami? उत्यानम् तत्र जस्त्वसन्धिः भूत्वा उद्यानं तकारस्य स्थाने दकारः अभवत्, परन्तु अत्र दट् इस् द प्लेस् वेर् दट् केन् एलिवेट् युवर् मूड्, उत् इत्युक्ते उपरि. अत्र उपसर्ग, यदि उपसर्गं पश्यामश्चेत् तत्रापि अर्थः अस्ति, एकैकस्य उपसर्गस्य अर्थः भवति. अत्र उत् उपसर्गपूर्वकः यानम् इति पदमस्ति, परन्तु अत्र अन्यं पदमस्ति विस्तृतम् इत्युक्ते किं वदतु, नूतनं पदं
विस्तृतं, विस्तारं बृहत् अस्ति, विस्तारं विस्तृतम् अस्ति वा भगिनि, विस्तारं
विस्तृतम् अस्ति इत्युक्ते यदि अत्र रामायणम् इति पदं नपुंसकलिङ्गपदं तदर्थं विस्तृतम् इति दत्तमस्ति, परन्तु स्त्रीलिङ्गे वदामश्चेत् विस्तृता अथवा यदि बुद्धिः इति वदामश्चेत् बुद्धिः विस्तारिता भवति,
बुद्धिः विस्तारिता, कादम्बरी विस्तारिता वक्तुं शक्नुमः,
वक्तुं शक्नुमः. उत्तमं, तावदेव. इदानीं वयम् अत्र किमर्थम् इति अत्र अन्यः अभ्यासः अस्ति, विलम्बेन केनापि आगतं वा अत्र, अत्र नो चेत् भवती एव वदतु अत्र, भवती किमर्थं संस्कृतं पठति वदतु.
अहं संस्कृतं न जानामि, अहं संस्कृतभाषायाम् उत्तमरीत्येण अवगन्तुम् अपि सम्भाषणं कर्तुम् इच्छामि, अतः अहं संस्कृतभाषां पठामि.
उत्तमम्. अत्र रीतिः, रीतिः इति पदम् इकारान्तपदम्, अतः उत्तमरीत्या,
उत्तमरीत्या, हा
उत्तमरीत्या. तदनन्तरं भवती दूरदर्शनं पश्यति चेत् किमर्थं पश्यति?
दूरदर्शनम् अहं विनोद विनोदेन पश्यामि.
अत्र किमर्थं, किमर्थम् इति वदामश्चेत् आनन्दार्थम् अथवा
किं वदामि भगिनि, विनोदार्थम् आनन्दार्थं पश्यामि
दूरदर्शनं पश्यामि. धन्यवादः. अधुना पूमा भगिनी भवती वदतु, भवती किमर्थं भगवद्गीतां पठति?
भगवद्गीता पठनेन आत्मसाक्षात्कारं करणीयम्
इत्युक्ते अत्र किमर्थम् इति प्रश्नः अस्ति, किमर्थम् इत्युक्ते ज्ञानार्थं. वदतु वाक्यं वदतु.
अहं गीता, भगवद्गीता आत्म उज्जीवनार्थं
पठामि. उत्तमं. तदनन्तरं यदि भवती ग्रन्थालयं गच्छति चेत् किमर्थं ग्रन्थालयं गच्छति?
ग्रन्थालये बहवः पुस्तकानि सन्ति, सद्विषयाणि.
अत्र पश्यतु भगिनि, पठनार्थं, पठनार्थं, ज्ञानार्थम्, आनन्दार्थं तथा वदामः. इत्युक्ते तथा एव अत्र भवती पठनार्थं ग्रन्थालयं गच्छति.
गच्छामि.
तदनन्तरं यदि पुष्पाणि आनयति चेत् भवती किमर्थं पुष्पाणि आनयति?
पूजार्थम्
आनयति. यदि भवती प्रश्नं पृच्छति चेत् किमर्थं प्रश्नं पृच्छति? इत्युक्ते साधारणतया वयं किमर्थं पृच्छामः? सन्देहनिवारणार्थं.
सन्देहनिवारणार्थम्.
उत्तमं. भवती देवालयं गच्छति चेत् किमर्थं गच्छति?
देवं नमस्कर्तुं गच्छामि. नमस्कार.
इत्युक्ते दैवदर्शनार्थम्
न दर्शनार्थं
दर्शनार्थं अथवा ध्यानार्थं. तदनन्तरं यदि वयं देवालयं देवदर्शनार्थं गच्छामः, परन्तु बालकाः शिशवः गच्छन्ति चेत् ते प्रसादार्थं गच्छन्ति,
क्रीडार्थं
गच्छन्ति, नो चेत् प्रसादार्थं गच्छन्ति.
प्रसादार्थं
धनं सम्पादयामश्चेत् किमर्थं सम्पादयामः?
जीवनार्थम्
उत्तमम् इत्युक्ते कुटुम्बपोषणार्थं. तदेव यदि वयं प्रातःकाले धावितुमिच्छामः, प्रातःकाले यदि भवती धावति चेत् किमर्थं धावति?
आरोग्यार्थम्.
उत्तमम्, आरोग्यार्थं तावदेव. उषा भगिनी भवती वदतु, यदि भवती चिकित्सालयं गच्छति चेत् किमर्थं गच्छति?
औषधार्थम्.
औषधार्थम् उत्तमं, तावदेव. शिशुः रोदिति, किमर्थं रोदिति शिशुः?
आहारार्थम्.
उत्तमम्, इत्युक्ते दुग्धपानार्थम् अथवा आहारार्थम्.
तत्र एकः प्रश्नः अस्ति, दुग्धम् अपि क्षीरं पर्यायपदानि सन्ति अथवा भेदम् अस्ति भगिनि?
भेदः नास्ति भगिनि. अहमपि गते सप्ताहे एव पठितवती. तत्र विद्याभगिनी उक्तवती तत्र दुग्धम् इति पदं कथम् आगतम् इति भगिनी उक्तवती. ऐ लर्न्ड् लास्ट् वीक् इन् मै क्लास्. इत्युक्ते तत्र धातुः अस्ति दुः, दुः धातुः अस्ति. दुः धातुतः दोग्धि इति क्रियापदम् आगच्छति. तत्र क्तान्तरूपं क्ताप्रत्ययान्तरूपम् एव दुग्ध दुग्धम्. दोहनं, दोहनम् इत्युक्ते मिल्किङ्ग्,
दोहनं.
दुः धातोः अर्थः मिल्किङ्ग्. मिल्किङ्ग् इस् ए इट् इस् ए वर्ब् इन् संस्कृतम्. दुः धातुतः दुग्धं. तत्र क्तान्तरूपाणि कथं निष्पन्नानि भवन्ति इति तत्र एकः पाठः अस्ति अस्माकं कृते. गते सप्ताहे एव अहं पठितवती. भज् धातुतः भक्तः.
भज् धातु, ओ तत्र एव ततः एव भजनं पदम् आगच्छति.
भजनं भजनं तथा एव नश् धातुतः नष्टं. नश् नाशयति, नश्यति, नश् नाशयति, नश्यति इति रूपाणि आगच्छन्ति. तथा एव अत्र भज् धातुतः भक्तः, दुः धातुतः दुग्धः, दुग्धः दुग्धं. क्तान्तरूपाणि सर्वदा त्रिषु लिङ्गेषु भवन्ति. अत्र दुग्धम् इति दुग्धमिति क्षीरमेव.
आं भगिनि,
किमर्थं चेत् तत्र दुः धातुतः वदतु भगिनि.
दुःखपदम् इति पदं दुः धातु उपयुज्य
दुःखः दुःखं, तत् भिन्नं पदं भगिनि. दुःखं दुःखम् इति भिन्नं पदं. तत्र तत्र दुः उपसर्गपूर्वकः, ख इत्युक्ते अत्र इन्द्रियम् इति अर्थः. तत्र भिन्नः अर्थः. तत्र संस्कृतभाषायां पदानि सर्वाणि अपि साधारणतया धातुतः आगच्छन्ति, परन्तु दुःखं तत्र दुः इति उपसर्गः, खम् इत्युक्ते इन्द्रियम्. दट् मीन्स् वाट् एवर् अन्प्लेसेण्ट् एक्स्पीरियन्स् वी हेव् इस् दुःखम्.
अस्तु भगिनि.
इन्द्रियाणां तत्र अनुभूतिः अस्ति, तत्तु सम्यक् नास्ति, तदेव दुःखं. यदि अनुभूतिः अथवा अनुभवः सम्यक् उत्तमम् अस्ति चेत्, समीचीनम् अस्ति चेत् सुखम् इति वदामः. तत्र खम् इत्युक्ते इन्द्रियम्, इन्द्रियानुभवः इति अर्थः तत्र. परन्तु अत्र दुः, दुः धातुतः दुग्धम् इति पदम् आगच्छति. वयं पठितवन्तः गते सप्ताहे, तदर्थम् अहम् उक्तवती. तदनन्तरम् अत्र अधुना शोभा भगिनी भवती एव वदतु अत्र, यदि भवती योगासनं करोति चेत् किमर्थं करोति?
आरोग्यार्थं करोमि.
उत्तमं. कौरवपाण्डवाः अत्र रणाङ्गणे समवेताः, किमर्थम्?
ते रणाङ्गणे समवेताः युद्धार्थं समवेताः.
युद्धार्थं समवेताः. अध्यापकः किमर्थम् विद्यालयं गच्छति?
अध्यापकः पठनार्थम्, अध्यापकः पाठयति, पठनार्थम् अन्यपदम् अस्ति.
पाठनार्थम् अथवा अध्यापनार्थम्,
अध्यापनार्थम्.
परन्तु छात्रः किमर्थं गच्छति?
छात्राः पठनार्थं गच्छन्ति
अथवा अध्ययनार्थम्,
अध्ययनार्थम्.
उत्तमम्. अपि च वयं भगवद्गीतां किमर्थं पठामः?
अध्ययनार्थं पठामः.
अपि च
ज्ञानार्जनार्थम्.
उत्तमम्. अपि ज्ञानार्थं,
ज्ञानार्जनार्थं कृपया वदतु भगिनि.
अत्र ज्ञानार्थं वदामश्चेत् भिन्नः अर्थः. ज्ञानार्जनार्थं
सम्पादयितुं, ज्ञानं सम्पाद.
उत्तमं. ज्ञानं सम्पादयितुं,
ज्ञानार्जन.
अनन्तरं पर्यटकाः भारतदेशं गच्छन्ति किमर्थम्?
पर्यटनार्थं.
पर्यटनार्थम्. उत्तमं.
पर्यटनार्थम्
इत्युक्ते यथा अत्र उषा भगिनी उक्तवती भ्रमणार्थं.
हलो,
सप्तत्रिंशत्तमे पुटे वदतु भगिनि. अत्र ओ अस्तु. अत्र सप्तत्रिंशत्तमे पुटे किमर्थम् इति अभ्यासः अस्ति. अत्र भूमा भगिनी भवती पठतु.
किमर्थम्? सः किमर्थं विद्यालयं गच्छति? सः पठनार्थं विद्यालयं गच्छति. अत्र शब्दद्वयं लिखितमस्ति, तत् उपयुज्य प्रश्नम् उत्तरं च लिखतु. यथा योगासनम् आरोग्यार्थं, सः किमर्थं योगासनं करोति? सः आरोग्यार्थं योगासनं करोति. ग्रन्थालयं पठनार्थं, सः पठनार्थं ग्रन्थालयं गच्छति.
किमर्थं
गच्छति? ग्रन्थालयं किमर्थं गच्छति?
उत्तमम्.
चिकित्सालयम् औषधार्थं, सः किमर्थं चिकित्सालयं गच्छति? विदेशं प्रवासार्थं, सः विदेशं किमर्थं गतवान्?
किमर्थं गतवान्?
विदेशं प्रवासनार्थं गतवान्।
उत्तमं, प्रवासार्थं गतवान्। यदि भवती काशीं गच्छति चेत् किमर्थं गच्छति काशी?
काशी विश्वनाथदर्शनार्थं गच्छामि।
उत्तमं, प्रयागं गच्छति चेत् किमर्थं?
प्रयागे गङ्गास्नानं कर्तुं गच्छामि।
उत्तमं, यदि भवती गङ्गास्नानार्थं गच्छति तथा एव भवती देहलीनगरं गच्छति चेत् किमर्थं गच्छति?
देहलीनगरं बहवः सुन्दराणि दृश्यानि दर्शनार्थं गच्छामि।
उत्तमम्, इत्युक्ते नगरदर्शनार्थं
गच्छामि।
यदि पाकशालां गच्छति चेत् किमर्थं गच्छति?
पाठशालां पठनार्थं गच्छामि।
न न, पाकशाला
भोजनार्थं गच्छामि।
इत्युक्ते भोजन पचनार्थम् अथवा भोजननिर्माणार्थम्?
ओ, भोजननिर्माणार्थम्। ओके,
उत्तमम् उत्तमम्। वदतु भगिनि, वदतु।
अनेन रूपाणि अनानि रूपाणि करणार्थं अन्यानि रूपाणि तुमुन् प्रत्यय समानार्थकपदं सन्ति।
आं भगिनि, अत्र तुमुन् प्रत्ययं योजयामश्चेत् तत्रापि किमर्थं, उत्तमं, भवती उत्तमम् उक्तवती। तथा एव अत्र सर्वे पश्यन्तु, अत्र दर्शनार्थम् इति वदामः, परन्तु दर्शनाय चतुर्थीविभक्तिम् उपयुज्य अपि वक्तुं शक्नुमः। पठनाय अथवा दर्शनाय चतुर्थीविभक्तिम् उपयुज्य अपि वयं तदेव वाक्यं वक्तुं शक्नुमः। चतुर्थीविभक्तेः उपयोगं तत्र किमर्थम् इति वदामश्चेत् तत्र उत्तरं चतुर्थीविभक्त्याम् अपि वक्तुं शक्नुमः। तथा एव यथा गीताञ्जलिभगिनी उक्तवती, किमर्थं द्रष्टुं गतवती, श्रोतुं गतवती। भवती एव एकं वाक्यं वदतु भगिनि, गीताञ्जलिभगिनी।
अहं देवालयं द्रष्टुं गच्छामि।
द्रष्टुं गच्छामि, तदपि समीचीनम्। इत्युक्ते विकल्पेन वक्तुं शक्नुमः, यु केन् एक्स्प्रेस् द सेम् सेण्टेन्स् इन् ए डिफ़्रेण्ट् वे। इत्युक्ते अत्र अहं देवालयं देवदर्शनार्थं गतवती अथवा देवं द्रष्टुं गतवती।
देवं दर्शनाय?
दर्शनाय गतवती, तदपि दर्शनाय इत्युक्ते चतुर्थीरूपम्। उत्तमं, यदि भवती जलाशयं गच्छति, जलाशयं, शोभा भगिनी भवती वदतु, जलाशयं गच्छति चेत् किमर्थं गच्छति जलाशयं?
अहं जलाशयं दर्शनाय गच्छामि, दर्शनार्थं गच्छामि, द्रष्टुं गच्छामि।
उत्तमम्, इत्युक्ते भवती यदुक्तवती सम्यक् एव, नौकाविहारार्थम् इति वक्तुं शक्नुमः। जलाशयं तत्र, अधुना वयम् अत्र किमर्थम् इत्यस्मिन् विषये किञ्चित् अधीतवन्तः, अपि च अत्र एतत् भवदीयम् इति कथा अस्ति, परन्तु अत्र समयः जातः, तदर्थम् अग्रिमे सप्ताहे वयं पठिष्यामः। अधुना अत्र स्थगयामः, सर्वेषां धन्यवादः।
धन्यवादः भगिनि, नमस्कारः।
धन्यवादः भगिनि, नमस्कारः।